प्रथम स्कंध अथाष्टमोध्याय गर्भ में परीक्षित की रक्षा, कुंती द्वारा भगवान की स्तुति और युधिष्ठिर का शोक। श्री सुत उवाच अथ ते संपरेता स्वानामुदकमिच्छता दातुं सकृष्णा गंगायां पुरस्कृत ययुस्त्रियः ते निनीयोदकं सर्वे विलप्य च भृशं पुनः आप्लुता हरिपादाब्जरजः पूत सरिज्जले तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजं गांधारीं पुत्रशोकार्तां प्रथम कृष्णां च माधवः सान्त्वयामास मुनिभिर्हत बन्धुन् सुचार्पितान् भूतेषु कालस्य गतिं दर्शयन् प्रतिक्रियाम् साधयित्वा जातशत्रो स्वं राज्यं कृतवैर्हृतम् घातयित्वा सतो राज्ञः कचस्पर्शक्षतायुषः याजयित्वा समेधैस्तं त्रिभिरुत्तमकल्पकैः तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् आमन्त्र्य पाण्डुपुत्रांश्च सैन्ये योद्धव संयुतः द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः गन्तुम् कृतमतिर्ब्रह्मम् द्वारकाम् रथमास्थितः उपलेभेऽभिधावन्तीम् उत्तराम् भयविह्वलाम् उत्तरोवाच पाहि पाहि महायोगिन् देवदेव जगत्पते नान्यम् त्वदभयम् पश्ये यत्र मृत्युः परस्परम् अभिद्रवति मामीश शरस्तप्ताय सो विभो कामम् दहतु माम् नाथ मामे गर्भो निपात्यताम्। श्रीसुत उवाच उपधार्यवचस्तस्या भगवान् भक्तवत्सलः अपाण्डवमिदम् कर्तुम् द्रौणेरस्त्रम बुध्यत तर्हे वाथ मुनिश्रेष्ठ पाण्डवः पञ्च सायकान् आत्मनोभिमुखान् दीप्तान् आलक्ष्यस्त्राण्युपाददुः व्यसनम् वीक्ष्य तत्तेषाम् अनन्यविषयात्मनाम् सुदर्शनेन स्वाश्रेण स्वानाम् लक्ष्याम् व्यधाद्विभुः अन्तःस्थः सर्वभूतानाम् आत्मा योगेश्वरो हरिः स्वमाय्यावृणोद्गर्भम् वैराट्यः कृतम् तवे यदप्यस्त्रम् ब्रह्मशिरस्त्वमोघम् च प्रतिक्रियम् वैष्णवम् तेज आसाद्य समसाम्यद्भृगुद्वः मामंस्था येतदाश्चर्यम् सर्वाश्चर्यमयेच्छिते य इदम् माय्या देव्या सृजत्तवति हन्त्यजः ब्रह्मतेजो विनिर्मुक्तैरात्मजैः सह कृष्णया प्रयाणाभिमुखम् कृष्णम् इदामाह प्रथासति। कुन्ती उवाच नमस्ये पुरुषम् त्वाद्यम् ईश्वरम् प्रकृतेः परम् अलक्ष्यम् सर्वभूतानाम् अन्तर्बहिरवस्थितम् माया जवनिकाच्छन्नम् अज्ञाधोक्षजमव्ययम् न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा तथा परमहंसानाम् मुनीनामलात्मनाम् भक्तियोगविधानार्थम् कथम् पश्येम हे स्त्रियः कृष्णाय वासुदेवाय देवकी नन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः नमः पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये यथा हृषीकेशखलेन देवकी कंसेन रुद्धाति चिरं सुचार्पिता विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणा विषान्महाग्नेः पुरुषाद् दर्शनात् असत् सभाया वनवासकृच्छ्रतः मृधे मृधे नेकमहारथास्ततो द्रोण्यस्ततश्चास्महरेभिरक्षितः विपदः सन्तु नः सस्व तत्र तत्र जगद्गुरो भवतो दर्शनम् यत्स्याद पुनर्भवदर्शनम् जन्मैश्वर्यश्रुत श्रीभिरेधमान् मदःपमान् नैवार्हत्यभिधातुम् वै त्वाम किञ्चन गोचरम् नमो किञ्चन वित्ताय निवृत्तगुणवृत्तये आत्मा रामाय शान्ताय कैवल्यपतये नमः। मन्ये त्वाम कालमीशानम् अनादि निधनम् विभुम् समम् चरन्तम् सर्वत्र भूतानाम् जन्मिथा कलिः न वेद कश्चिद् भगवन् चिकीर्षितम् तवेह मानस्य नृणाम् विनम्बनम् न जस्य कश्चिद् दयितोऽस्ति कर्हिचित् द्विष्यश्च जस्मिन् विषमा मतिर्नृणाम् जन्म कर्म च विश्वात्मन अजस्या कर्तुरात्मनः त्रियं ऋषिषु जादसु तदत्यन्त विडम्बनम् गोप्या ददे त्वयि कृता गसिदाम तावत् या ते दशाश्रु कलिलाञ्जन सम्भ्रमाक्षम् वक्त्रम् निनीय भयभावनया स्थितस्य सा माम् विमोहयतिभिरपि यद्विभेति केचिदाहुरजम् जातम् पुण्यश्लोकस्य कीर्तये जदोः प्रियस्वान्वाये मलयस्येव चन्दनम् अपरे वसुदेवस्य देवक्याम् याचितोऽभ्यगात् अजस्त्वमस्य क्षेमाय बधाय च सुरद्विषाम् भारावतारणायान्ये भूर्नावैव दधौ सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः भवेस्मिन् क्लिश्यमानानाम् अविद्याकामकर्मभिः श्रवणस्मरणार्हाणि करिष्यन्निति केचन शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितम् जनः ता एव पश्यन्त चिरेण तावकम् भव प्रवाहो परमम् पदाम्बुजम् अप्यद्य नस्त्वम् स्वकृते हित प्रभो जिहाससि स्वित्सुहृदोऽनुजीविनः येषाम् न चान्यद् भवतः पदाम्बुजात् परायणम् राजसुयोजिताङ्घसाम् के वयम् नाम रूपाभ्याम् जदुभिः सह पाण्डवः भवतो अदर्शनम् जर्हि हृषीकाणामि वेशितुः नेयम् शोभिष्यते तच्च जथेदानीम् गदाधर त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः इमे जनपदः स्वृद्धा सुपौकौषधिविरुधः वनाद्रिनद्य दन्वन्तो ये दन्ते तव वीक्षितैः अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे स्नेहपाश्मिमम् छिन्धे दृढम् पाण्डुषु वृष्णिषु त्वयि मे नन्य विषया मतिर्मधुपते सकृत् रतिमुद्वहता दद्धा गङ्गे वौघमुदन्वति श्रीकृष्ण कृष्ण सख वृषाणिसभावनिधृ राजन्यवंश दहनानपवर्ग विरज गोविन्द गोद्विज सुरार्ति हरावतार योगेश्वराखिल गुरो भगवन् नमस्ते। सुत उवाच पृथ्येथम् कल्पदै परिणूताखिलोदयः मन्दम् जहास वैकुण्ठो मोहयन्निव मायया तम् वाढमित्युपामन्त्र प्रविश्य गजसाह्वयम् स्त्रियश्च स्वपुरम् जास्यन् प्रेम्णा राज्ञा निवारितः व्यासाद्यैरीश्वरेहाज्ञे कृष्णेनाद्भुतकर्मणा प्रबोधितोऽप्यतिहासैर्नाबुध्यत सुचार्पितः आह राजा धर्मसुतश्चिन्तयन् सुहृदाम्बधम् प्राकृतेनात्मना विप्रा स्नेहमोहवसङ्गतः अहो मे पश्यता ज्ञानम् हृदि रूढम् दुरात्मनः पारक्यस्यैव देहस्य बह्वो म्यौक्षणीर्हतः बाल द्विज सुहृन्मित्र पितृभ्रातृर्गुरुद्रुभ न मे स्यान्निरयान्मोक्षो यपि वर्षायुतायुतैः नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो दृशाम् इति मे न तु बोधाय कल्पते शासनम् वचः स्त्रीणाम् मद्धत् बन्धूनाम् द्रोहो योषा विहत्थितः कर्मभिर्गृहमेधियैर्नाहम् कल्पो व्यपोहितुम् यथा पङ्केन पङ्काम्भ सुरया वा सुराकृतम् भूतहत्याम् तथैवैकाम् न जज्ञैर्माष्टुमर्हति। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् प्रथमस्कन्धे कुन्ती स्तुतिर्युधिष्ठिरानुतापो नामाष्टमोऽध्यायः।